गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वर गुरुसाक्षात्परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सङ्ख्या इति विषये वयं गतवर्गे लक्षणवाक्यं दृष्टवन्तः तत्र सङ्ख्या इति तत्र लक्षणवाक्ये व्यवहारः इति पदमस्ति नाम व्यवहारघटितलक्षणवाक्यम् इति तत्र कोऽपि स्मरयति वा तत्र व्यवहारः नाम किम् योगेन्द्रमहोदय व्यवहारः नाम किम् अथवा नीता भगिनी तत्र व्यवहारः नाम किम्
शब्दप्रयोगः
कीदृशशब्दप्रयोगः
तत्र येन अर्थबोधनं भवति तत्
समीचीनं नाम ज्ञानजनक
ज्ञानजनकशब्दप्रयोगः
समीचीनं हा ज्ञानजनकशब्दप्रयोगः इति व्यवहारः तत्र तादृशव्यवहारः इति पदं तत्र लक्षणे अस्ति नाम तादृशम् अस्ति चेत् वयं वदामः व्यवहारघटितलक्षणवाक्यं नाम व्यवहार इति शब्दः एकः भागः अस्ति लक्षणवाक्ये इति व्यवहारघटितलक्षणवाक्यम् इति भवति तत्र व्यवहारघटितलक्षणवाक्यम् अस्ति इति कृत्वा यत्र व्यवहारः भवति तत्र किं भवति व्यवहारेण तत्र ज्ञानम् उद्भवति यतोहि तत्र शब्दप्रयोगः अस्ति शब्दप्रयोगेन ज्ञानं भवति अपि तत्र शब्दप्रयोगः अपि स्वतः तत्र तस्य अपि कारणम् अपि भवेत् अत्र लक्षणवाक्ये तत्र किम् अस्ति तत्र अस्माकं लक्षणवाक्यं कुत्र आसीत् तत्र हा तत्र साधारणरूपेण तत्र लक्षणवाक्यं किं भवति तत्र सङ्ख्यायाः तत्र कोऽपि स्मरति वा अत्रापि दत्तमस्ति किन्तु कोऽपि स्मरति वा तत्र साधारणलक्षणवाक्यम्
एकत्वादिव्यवहारहेतुः सङ्ख्या इति
हा इति समीचीनं हा एकत्वादिव्यवहारहेतुः सङ्ख्या इति लक्षणवाक्यम् अस्ति तस्य तत्र विस्तृतरूपम् अस्ति नाम तत्र अवच्छेदकः अवच्छेद्य सर्वं तत्र मिलित्वा यदि प्रदर्शयामश्चेत् एतादृशं दीर्घं वाक्यं भवति तत्र नाम तत्र एतद् केवलं पुनस्मरणं कृत्वा यतोहि एतादृशं बहुत्र भवति इति कृत्वा तत्र अन्य कोऽपि इदानीं भवेत् तत्र तत्र किं किम् अस्ति इति तर्हि नूतनतया तत्र पद्माभगिनी नमस्कारः राजीवभगिनी नमस्कारः 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 अस्तु तर्हि तत्र नीताभगिनी भवती एव तत्र किञ्चित् वदति वा तत्र किं तत्र चित्रे किम् अस्ति इति अंशाः के इति प्रथमतया उक्त्वा तदनन्तरं मिलित्वरूपेण वदतु भगिनि
तत्र घटः विशेष्यम् इति रूपेण अस्ति अनन्तरं घटे
अत्र ज्ञानं तत्र वयम् उक्तवन्तः सङ्ख्या इत्युक्ते तत्र एकत्वादिव्यवहारहेतुः तर्हि तत्र अत्र ज्ञानं कीदृशम् अस्ति ज्ञानस्य आकारः कः
ज्ञाने तत्र ज्ञाने प्रकारता अस्ति
किन्तु ज्ञानं कीदृशं नाम तत्र अहं जानामि अहं गच्छामि इति तादृशज्ञानं वा ज्ञानस्य विषयः नाम ज्ञानस्य विषयः कः
ज्ञानस्य विषयशब्दप्रयोगः इति अस्ति
न ज्ञानस्य विषयः अस्ति न अत्र चित्रे ज्ञानम् इति अस्ति तत्र
ज्ञाने
तस्य विषयः कः ज्ञानस्य विषयः कः
घटः एकः घटः इति
उत्तमं समीचीनं भगिनि नाम अत्र विषयः अस्ति एकः घटः इति समीचीनम् एकः घटः एकः घटः इति विषयकं ज्ञानम् अस्तु समीचीनं हा तर्हि
घटे घटे विशेष्यता अस्ति तत्र विशेष्यता तत्र घट घट या विशेष्यता तत्र घटे वर्तते सा घटनिष्ठा विशेष्यता अस्ति तथैव सा घटत्वावच्छिन्ना विशेष्यता इति अपि अस्ति
तथैव समीचीनं तत्र किमर्थं घटः घटे विशेष्यता अस्ति
तत्र घटे विशेष्यता अस्ति इत्युक्ते तत्र यदि वयं वदामः एकः घटः तत्र एकः इति विशेषणं भवति घटस्य
एकः इति विशेषणसूचकपदं समीचीनं अपि घटः स्वयं विशेष्यः अत्र विशेष्यः समीचीनं भगिनि घटः विशेष्यः
या विशेषता घटे वर्तते सा घटत्वावच्छिन्ना विशेष्यता इति अस्ति
समीचीनम् अस्तु
तत्र घटे घटत्वमपि वर्तते विशेष्यता अपि वर्तते घटत्वावच्छिन्ना विशेष्यता तत्र अस्ति
नाम तत्र अवच्छिन्ना नाम यत्र एषा विशेष्यता भवति तत्र अवश्यं घटत्वं वर्तते अपि यत्र घटत्वं नास्ति तत्र एषा विशेषता भवति वा तत्र
तत्र न भवति
न भवति तत्र अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति वयं पूर्वं तत्र करपत्रे अपि पठितवन्तः खलु तत्र अन्यून अनतिरिक्तवृत्तित्वं नाम यत्र यत्र विशेष्यता तत्र तत्र घटत्वं यत्र यत्र घटत्वं तत्र तत्र विशेष्यता
विशेष्यतायाः अवच्छेदकधर्म तत्र घटत्वम् इति
घटत्वम् इति भवति समीचीनं अस्तु
अनन्तरं तत्र विशेषणरूपेण यत् एकः इति पदमस्ति तत्र एकत्वं तस्य धर्मः वर्तते एकत्वत्वम् इति इत्युक्ते एकत्वत्वम् एकत्वे वर्तते तथैव एकत्वे प्रकारता अपि वर्तते
इदानीं प्रश्नः प्रकारता किमर्थम् एकत्वे अस्ति
प्रकारता अस्माभिः यद् दृष्टम् एकः घट इति ज्ञानमस्ति सा प्रकारता ज्ञाने वर्तते
प्रकारता नाम विषयता प्रकारता नाम
प्रकारता
एकविध विषयता तत्र अस्मिन् ज्ञाने विषयद्वयम् अस्ति वा विषयत्रयम् अस्ति वा नाम यदि वयं वदामः एकः घटः इति तत्र यदि अन्यत् स्वीकरोतु भगिनी तन्नाम तत्र पटवत् भूतलम् इति स्वीकरोतु अथवा पुस्तकवत् भूतलं तत्र किम् अस्ति विषयः तत्र कः के विषयाः अन्तर्भूताः सन्ति पुस्तकवत् भूतलम् इति
तत्र पुस्तकवत् भूतलम् इत्युक्ते तत्र भूतलम् इति
अधिकरणमस्ति अधिकरणमस्ति समीचीनं
तत्र पुस्तके आधेयता अस्ति
पुस्तकमिति एकः विषयः अस्ति समीचीनं पुस्तक इति आधेयः अस्ति भूतलम् इति अधिकरणमस्ति
तत्र पुस्तके एकत्वं वर्तते इति
इदानीम् एकत्वं मास्तु केवलं पुस्तकवत् भूतलम् इति तावदेव ज्ञानं तर्हि तत्र पुस्तकमस्ति विषयः भूतलम् अपि अस्ति विषयः अपि अन्यत् किमपि अन्य कोऽपि विषयः अस्ति वा अत्र
तत्र यदि पुस्तकवत् भूतलम् इति वदामः चेत् तत्र पुस्तकवत् विशेषणरूपेण आगच्छति
समीचीनं तर्हि तर्हि पुस्तकम् इति पुस्तकम् इति विशेषणं भवति, भूतलम् इति तत्र विशेष्यम् इति भवति अपि, हा अपि तत्र प्रश्नः उदेति खलु, तत्र केन सम्बन्धेन पुस्तकः पुस्तकं भूतले वर्तते इत्यपि प्रश्नः उदेति खलु,
अधेय अधिकरणरूपेण तत्र
किन्तु सम्बन्धः अत्र सम्बन्धः कः अत्र
संयोगसम्बन्ध
संयोगः हा तर्हि संयोगसम्बन्धः अपि विषयः इति भवति खलु. तत्र वयं तत्र पूर्वं पुस्तके वयं दृष्टवन्तः खलु तत्र ज्ञानस्य तत्र रेखात्रयं गच्छति, तत्र विशेष्यं प्रति एकं विशेषणं प्रति एका रेखा गच्छति खलु. हा अपि सम्बन्धस्य सम्बन्धं प्रति अपि तथा तत्र अत्र किमस्ति एकत्वम् इति, तत्र एकः नाम घटे किं साक्षात् वर्तते,
घटे घटे एकत्वम् इति एकत्वमस्ति.
हा एकत्वमेव साक्षात् विशेषणं नाम उन्नतः वृक्षः इति वदामश्चेत् उन्नतः इति वृक्षे नास्ति किन्तु औन्नत्यं वृक्षे
वर्तते.
तथैव एकः घटः इति यदि वदामः घटे साक्षात् एकत्वं वर्तते, न तु एकः इति घटे वर्तते खलु. हा अतः एकत्वम् इति विशेषणम् इति कृत्वा तस्मिन् या विशेष्यता विषयता वर्तते तस्याः नाम अस्ति तत्र घटे विद्यमाना विषयता अस्ति विशेष्यता
विशेष्यता घटे विशेष्यता
एकत्वे प्रकारता अपि संयो तत्र सम्बन्धे तत्र संसर्गता इति दृष्टं खलु. अत्र एकत्वम् इति घटे वर्तते विशेषणम् इति अस्ति समीचीनम्, अतः तत्र एकत्वे प्रकारता इति वर्तते समीचीनं. हा अस्तु भगिनि, तत्र अपि एकत्व तत्र प्रकारतायाः अवच्छेदकधर्मः अस्ति, अत्र
प्रकारतायाः अवच्छेदकधर्मः अस्ति एकत्वत्वम् इति.
हा एकत्वत्वम् इति समीचीनं. हा उत्तमं भगिनि, इदानीम् अन्य कोऽपि कुर्यात्, धन्यवादः भगिनि, उत्तमं
धन्यवादः.
अस्तु विमला भगिनी नमस्कारः. अस्तु हा अस्तु, इदानीम् अग्रे तत्र अशोक महोदय किञ्चित् अग्रे गच्छामः वा अत्र, तत्र इदानीं प्रकारता एतावत् विवरणं कृतम्, इदानीम् अग्रे तत्र चित्रस्य विवरणं किञ्चित् पुनः केवलं पुनस्मरणार्थं महोदय.
सङ्ख्यायाः लक्षण वाक्यं प्रति चिन्तयामः.
समीचीनं,
तस्य लक्षणं कश्चित् काचित् विध कारणता आश्रयत्वम्
इति. तत्र वयं वदामः एकत्वादिव्यवहारः हेतुः इति.
अतः कीदृशकारणता शब्द शब्दप्रयोगस्य कार्यता शब्दप्रयोगनिष्ठकार्यता निरूपितकारणता आश्रयत्वं कीदृशशब्दप्रयोगः नाम ज्ञाननिष्ठकार्यता निरूपितकारणता आश्रय शब्दप्रयोगः कीदृश
नाम यदि वयं वदामः रामः गच्छति तादृशशब्दप्रयोगः कुर्मश्चेत् तत्र प्रयोगं प्रति तत्र सङ्ख्या कारणं भवति वा
न, यतोहि कीदृशज्ञानम् इति
कीदृशज्ञानम् इति भवति. हा तत्र सर्वविधशब्दप्रयोगं प्रति सङ्ख्या कारणं नास्ति, केवलं विशिष्टशब्दप्रयोगं प्रति एव सङ्ख्या कारणं भवति. समीचीनं, हा अतः शब्दप्रयोगात् यत् जन्यं तत्र ज्ञानम् अस्ति तत् विशिष्टं भवेत्.
एकतत्त्व अवच्छिन्न प्रकारता निष्ठज्ञानः अपि अस्ति. घटत्व अवच्छिन्न विशेषता आश्रयज्ञानमस्ति. घटत्व अवच्छिन्न विशेषता आश्रयः अपि ज्ञानमस्ति.
आ महोदय, अत्र तत्र एषः शरः तत्र आश्रयत्वं न सूचयति, किन्तु तत्र अत्र निरूप्य निरूपकभावः नाम तत्र प्रकारता निरूपकं ज्ञानम् अपि विशेषता निरूपकं ज्ञानम्
प्रकारिता एव ज्ञानी अस्ति.
हा सत्यं महोदय, सत्यं. हा तत्र विशेषता साक्षात् घटे अस्ति इति कृत्वा.
प्रकारतायाः प्रकारता विषयः अस्ति, ज्ञानस्य विषयः अस्ति. विशेषता अपि ज्ञानस्य विषयः अस्ति.
हा हा, नाम एकत्वम् अत्र साक्षात् विषयः, एकत्वम् अपि घटः.
आम् आम्.
हा विषयत प्रकारत विशेषत तत्र केवलं तत्र निरूपि निरूपकं ज्ञानम् अथवा विशेष्यता निरूपकं ज्ञानम् इति वदामः तावदेव.
अस्तु महोदय, एकत्वत्व अवच्छिन्न प्रकारता निरूपक, घटत्व अवच्छिन्न विशेषता निरूपक, ज्ञाननिष्ठ कार्यता निरूपित, कारणताश्रय कार्यता शब्द कारणता आश्रय
आश्रय शब्दप्रयोग
कार्यता निरूपित कारणतायाः आश्रयत्वं संख्यायाः लक्षणम्
लक्षणमिति. समीचीनं महोदय. हा हा तथैव अस्ति. तत्र रूपत्रयं वर्तते महोदय, साक्षात् नाम प्रकारता निरूपकं ज्ञानम् अपि विशेषता निरूपकं ज्ञानम् इति अपि वक्तुं शक्नुमः. तदा किं भवति, ज्ञानस्य प्रकारतनिरूपकम् इति एकं विशेषणं भवति, विशेषतानिरूपकं ज्ञानम् इति द्वितीयविशेषणं भवति ज्ञानं प्रति, यथा चित्रे दत्तं. किन्तु अत्र वाक्ये
समवायसम्बन्धः संसर्गता अस्ति.
हा हा समीचीनं. हा अत्र तदपि समीचीनं, चित्रे न दर्शितं किन्तु उत्तमं महोदय, तत्र संसर्गता अपि दत्तमस्ति. किन्तु अत्र साक्षात् तत्र वाक्ये किं कृतम् इत्युक्ते एकत्वत्वावच्छिन्नप्रकारतनिरूपित इति दत्तं, किन्तु निरूपकम् इति नास्ति, विशेष्यता तदनन्तरं निरूपकम् इति दत्तम्. अतः अत्र निरूपकम् इति अस्ति, किन्तु अत्र निरूपितम् इति एव अस्ति. तत्र किमर्थं तादृशं कृतम् इत्युक्ते, यदि कोऽपि वदति प्रकारता, तदा अस्माकं मनसि प्रश्नः उदेति, प्रकारता इति अस्ति वा तर्हि विशेष्यता भवेत्, नाम प्रकारता नाम विशेषणं, विशेषणम् अस्ति चेत् विशेष्यं भवेत्, तर्हि विशेष्यता अपि भवेत्. अतः प्रकारता अपि विशेष्यता तयोः मध्ये निरूप्य निरूपकभावः अस्ति. अतः अत्र विवरणे किं कृतं, निरूपित
विशेष्यता अस्ति.
हा तर्हि तत्र प्रकारते निरूपित घटत्वावच्छिन्न घटनिष्ठविशेष्यता इति तस्य अन्यत् विशेषं, तदनन्तरं निरूपकम् इति दत्तं. किन्तु यद् भवता उक्तं तदपि समीचीनं, तत्र चित्रे तदेव प्रदर्शितं, किन्तु वाक्ये अन्यविधया दत्तं तावदेव. समीचीनं महोदय. हा अतः समीचीनम्. अतः प्रश्नः अस्ति वा इदानीं लक्षणे? क्षम्यतां, तत्र अस्तु अस्तु अस्तु, एकनिमिषं विमला भगिनी. हा इदानीं सम्यक्तया दृश्यते वा भगिनि? विमला भगिनि, इदानीं समीचीनं वा?
आं महोदय, धन्यवादाः.
हा क्षम्यतां भगिनि. हा तत्र हैब्रिड् किञ्चित् हा तत्र हा अस्तु. हा अस्मिन् विषये कोऽपि प्रश्नः तत्र ज्ञाने तत्र चित्रे के के अंशाः सन्ति इति सर्वे अवगच्छन्ति वा? अपि तत्र यद्यपि सङ्ख्या तत्र यदि वयं वदामः तत्र व्यवहारहेतुः इति वदामः तत्र शब्दप्रयोगः भवेत् ज्ञानं भवेत् व्यवहारः इति यदि वदामः तत्र शब्दप्रयोगः अपि ज्ञानं भवेत् व्यवहारहेतुः इति यदि वदामः तदा किं भवति अन्यत् किमपि आगच्छति यतोहि तदा वदामः शब्दप्रयोगं प्रति कारणम् अत्र एतदेव कारणं व्यवहारः इति वदामश्चेत् एतावत् सर्वं भवेत् व्यवहारम् इत्युक्ते विशिष्टज्ञानं तत्र शब्दप्रयोगेन ज्ञानं जनय तत्र भवति उत्पत्तिः ज्ञानस्य उत्पत्तिः भवति विशिष्टज्ञानस्य उत्पत्ति तद् ज्ञानं कीदृशम् इति अत्र दत्तमस्ति तत्र व्यवहारः इति तत् व्यवहारः इति यदि वदामः तत्र शब्दप्रयोगे कारणता अस्ति किन्तु व्यवहारहेतुः इति यदि वदामः शब्दप्रयोगस्य कारणम् इति अस्ति इति वदामः अतः अन्यस्मिन् पदार्थे कारणत्वं भवति अथवा कारणता अस्ति अपि शब्दप्रयोगे इदानीं कार्यता अपि आगता तर्हि शब्दप्रयोगे यत्र यत्र व्यवहारहेतुः इति अस्ति तत्र शब्दप्रयोगे कारणता अपि अस्ति कार्यता अपि अस्ति इति स्मर्तव्यम् अस्माभिः. अस्तु तर्हि इदानीम् अग्रे गच्छामः. तत्र सर्वे स्मरन्ति इति मन्ये. कोऽपि प्रश्नः अस्मिन् विषये तत्र सङ्ख्यायाः विषये? नास्ति. अस्तु तर्हि तत्र अग्रे गच्छामः. तर्हि तत्र प्रकारता अवच्छेदकं च प्रवेश्य एतत् सर्वं नाम परिष्कर्तुं तत्र पाल् रिफैन्मेण्ट् कर्तुं यतितव्यम् इति अस्ति. अस्तु इदानीम् अग्रे तर्हि नूतनविषयः इदानीं परिमाणम् इति. अस्तु तर्हि तत्र विमला भगिनी भवती एव पठति वा?
नमस्ते महोदय. मानव्यवहार असाधारणं कारणं परिमाणं नवद्रव्यवृत्तिः तच्चतुर्विधम् अणु महत् दीर्घं ह्रस्वं च इति. अत्र मानस्य परिमाणं प्रति या मान तदेव खलु मानमित्युक्ते परिमाणं खलु.
सत्यं सत्यं मानव्यवहार यथा तत्र एकत्वं नाम एकः घटः इति तादृशव्यवहारं प्रति सङ्ख्या इति पदार्थः कारणं तथैव
मानव्यवहारं प्रति परिमाणं कारणं
परिमाणं कारणम् असाधारणं कारणं नाम साधारणकारणं नाम सर्वेषां वस्तूनां प्रति यत् कारणम् अस्ति तत् साधारणकारणं नाम ईश्वरः ईश्वर इच्छा एतत् सर्वं साधारणकाल दिक् एतत् सर्वं साधारणकारणं यतोहि सर्वेषां प्रति कारणत्वं वर्तते तत्र. किन्तु परिमाणे अथवा तत्र सङ्ख्यायां सर्वेषां वस्तूनां प्रति कारणत्वं नास्ति खलु सङ्ख्यायां परिमाणे अपि कारणत्वं वर्तते किन्तु सर्वेषां प्रति तत्र सर्वं प्रति कारणत्वं न वर्तते इति
कृत्वा
मानव इति तादृशव्यवहारं प्रति कारणत्वं
परिमाणं
वर्तते तादृशकारणत्वमेव परिमाणे वर्तते अन्यविधकारणत्वं परिमाणे न वर्तते नाम विशिष्टकारणत्वमेव परिमाणे वर्तते इति कृत्वा असाधारणकारणम्
नवद्रव्यवृत्ति इति नवद्रव्येषु अपि वर्तते परिमाणं
तत्र संख्या नवद्रव्येषु वर्तते वा संख्या
न
नाम कुत्र न वर्तते संख्या नाम आकाशे संख्या न वर्तते वा
आकाशे अस्ति आकाशे मनधिकात्मा
अस्ति अतः एकः आकाशः एकं मनः इति वक्तुं शक्नुमः खलु तर्हि तत्र संख्या सर्वत्र वर्तते नवद्रव्यवृत्ति हा किन्तु रूपं सर्वत्र न वर्तते
नास्ति
हा
महोदय
हा अतः तत्र संख्या यथा संख्या तथैव
नवद्रव्यवृत्तिः अस्तु अपि च चतुर्विधमस्ति इति ब्रूतम् अणु महत् दीर्घं ह्रस्वं चेति
चतुर्विधम् इदमस्ति अस्तु समीचीनम् अग्रे किञ्चित् पठतु भगिनि
क्रमप्राप्तं परिमाणं लक्षयति मानव्यवहार इति इहम् अयं दीर्घः अहं लघुः इत्यादिरूपः परिमाणविषयकव्यवहारः ग्राह्यः तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादिविशेष्यकं लघुत्वप्रकारकं ज्ञानम् उत्पद्यते तत्र प्रकारता लघुत्वत्व अवच्छिन्ना
एतावत्
ज्ञानमुत्पद्यते तत्र
पर्यन्तं किञ्चित् विवरणं
क्रमप्राप्तम् इत्युक्ते अस्माभिः एकैकं गुणं गृहीत्वा परिष्कारं कृतम् परिमाणस्य लक्षणं
तत्र गुणस्य आवलिः तत्र किं कस्मिन् पुटे
शब्दरूपरसगन्ध इति
तत्र क्रमेण तत्र किं भवति तत्र रूपरसगन्धस्पर्श इति तेषां तत्र लक्षणवाक्यं दृष्टवन्तः तत्र सर्वत्र किम् आसीत् इन्द्रियम् आसीत् नाम तत्र
आं प्रथमतया इन्द्रियम् अस्तु
इन्द्रियं विशिष्ट इन्द्रियेण ग्राह्यः गुणः इति तादृशम् आसीत् खलु किन्तु इदानीं तत्र तदनन्तरं तत्र संख्या इति परिमाणं पृथक्त्वं संयोगविभागः इति अतः क्रमशः इदानीं संख्यायाः लक्षणवाक्यं दृष्टवन्तः इदानीम् अग्रे अस्ति परिमाणम्
परिमाणम् अस्तु तदेव अस्माकं लक्ष्यमस्ति अद्य मानव्यवहार इति शब्दप्रयोगः यत् मानस्य ज्ञानम् उत्पादयति तदेव परिमाणमिति कथमित्युक्ते इयं दीर्घः अस्ति अयं लघुः अस्ति इत्यादिरूपः परिमाणविषयकव्यवहारः अस्माभिः ग्राह्यः अवगन्तव्यम्
यथा तत्र संख्याविषयकव्यवहारः कीदृशः अस्ति
एकत्वं द्वित्वम् इत्यादि
एकः घटः इति तत् किं भवति संख्याविषयकव्यवहारः अत्र परिमाणविषयकव्यवहारः अयं दीर्घः अयं लघुः इति
तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादि विशेष्यकं लघुत्वप्रकारकं ज्ञानम् उत्पद्यते इत्युक्ते यदि घटः लघु अस्ति तत् घटस्य मानं तस्य परिमाणम् इति अस्माभिः अवगम्यते तेन शब्दप्रयोगेन एतादृशशब्दप्रयोगः यत् व्यवहारमिति उच्यते तेन अस्माभिः अवगम्यते यत् घटः लघु अस्ति इति तत् किम् इति अस्माभिः ज्ञायते ज्ञानम् उत्पद्यते इति
समीचीनं तर्हि तत्र समीचीनं भगिनि ज्ञानम् उत्पद्यते तत्र घटादिविशेषकं लघुत्वप्रकारकं नाम किम् अस्ति
घटः ज्ञानस्य विषयः अस्ति तस्मिन् विषयता अस्ति विषयतायाः त्रिविधमस्ति विशेष्यता संसर्गिता प्रकारता इति संसर्गता प्रकारता इति घटस्य विशेषणम् अस्ति प्रकारता लघुत्वं प्रकारता अस्ति.
हा तत्र घटे विशेष्यता वर्तते समीचीनम्. अपि लघुः नाम घटुः घटः लघुः इति लघुत्वं
विशेषणमस्ति.
विशेषणम् अस्ति तर्हि हा विशेषणे प्रकारता वर्तते. अतः प्रकारकं लघुत्वमेव साक्षात् प्रकारकं घटः एव विशेष्यकं नाम विशेष्यम् इति अस्ति. समीचीनं समीचीनमस्ति भगिनि, धन्यवादः.
धन्यवादः महोदय.
अस्तु इदानीं समीचीनं भगिनि. इदानीम् अग्रे तत्र उषा भगिनी अग्रे पठति वा?
आं महोदय. तत्र प्रकारता लघुत्व अवच्छिन्ना.
भगिनि भगिनि
ओ लघुत्वत्व अवच्छिन्ना. तत्र प्रकारता लघुत्वत्व अवच्छिन्ना तथा च लघुत्वत्व अवच्छिन्न लघुत्वनिष्ठप्रकारतानिरूपित घटनिष्ठविशेष्यतानिरूपक ज्ञाननिष्ठजन्यातिनिरूपितजनकता आश्रय शब्दप्रयोगे शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता आश्रयत्वं परिमाणस्य लक्षणम्. चित्रमेव
किन्तु भगिनि तत्र किम् अस्ति नाम चित्रं दृष्ट्वा वाक्यं किम् इति वक्तव्यं. वाक्यं दृष्ट्वा वाक्यं यदि जानीमः
चित्ररचनमपि कर्तुम्
अस्माभिः कर्तव्यम्
अस्माभिः कर्तुम्. आं महोदय. घटः लघुः घटः दीर्घः इति ज्ञानम् अस्ति. घटः इति विशेष्यं लघुत्वम् इति विशेषणं भवति. लघुत्वम् इति विशेषणस्य लघुत्वम् इति विशेषणस्य कृते प्रकारता इति वयं वदामः. घटः इति विषयः इति कृते विशेष्यता.
किमर्थं लघुत्वम् इति विशेषणं भवति?
लघुत्वम् इति
नाम लघुः घटः इति वदामः तर्हि तत्र लघुः किमर्थं विशेषणं न भवति? लघुत्वम् इति एव विशेषणं भवति.
लघुत्वम् एव विशेषणं भवति. तत् धर्मः
नाम तत्र उन्नतः वृक्षः इति वदामः.
औन्नत्यमेव
खलु नाम उन्नतः इति वृक्षे नास्ति.
औन्नत्यमेव वृक्षे
वृक्षे नाम विशेषणं किमस्ति? येन अथवा येन तत्र औन्नत्यम् इति विशेषणं किमर्थम् इति विशेषणं नाम किम् इत्युक्ते येन एषः वृक्षः अन्येभ्यः
पृथक्
पृथक् पृथक् इति ज्ञातुं शक्नुमः. तत्र प्रदर्शयितुं शक्नुमः. पश्यतु अस्मिन् वृक्षे औन्नत्यं वर्तते, अन्येषु वृक्षेषु औन्नत्यं नास्ति. अतः पृथक् कर्तुं भेदः कः इति प्रदर्शयितुं विशेषणं वर्तते. अतः साक्षात् यः पदार्थः अथवा यत् साक्षात् विशेष्ये वर्तते तदेव विशेषणत्वेन स्वीकर्तव्यम्. अतः लघुत्वमेव विशेषणं.
आम् आम् महोदय, लघुत्वमेव विशेषणं भवति साक्षात्. सो लघुत्वम् इति विशेषणम् इति कृते प्रकारता इति भवति.
प्रकारता लघुत्वे वर्तते.
सो प्रकारता इति लघुत्ववत्त्वेन अवच्छिन्नः भवति. लघुत्वत्वं लघुत्वत्वम् इति अवच्छेदकता, प्रकारता इति अवच्छेद्यता भवति. तथा वयं शक्नुमः वक्तुं शक्नुमः लघुत्वत्वेन
गच्छामः भगिनि. नाम अस्तु अस्तु समीचीनमेव, किन्तु मन्दं गच्छामः नाम लघुत्वे प्रकारता वर्तते, विशेष्यता घटे वर्तते
विशेष्यता
केन अवच्छिन्ना?
विशेष्यता घटत् घटत्वेन अवच्छिन्ना भवति.
अवच्छेदकः कः अत्र?
घटत्वम् इति अवच्छेदकः, विशेष्यता अवच्छेद्यता भवति.
अवच्छेद्य
अवच्छेद्य भवति.
तदा
वयं वदामः, तदा वयं वदामः घटत्व अवच्छिन्नविशेष्यता इति.
विशेष्यता इति समीचीनं. हा तर्हि घटत्वे अवच्छेदकता विशेष्यतायाम् अवच्छेद्यता
वर्तते.
समीचीनं. तथैव अत्रापि
तथैव
लघुत्वम् इति अस्ति.
लघुत्वम् इति विशेषणम् अस्ति. लघुत्वम् इति अवच्छेद लघुत्वम् इति कृते अवच्छेदकता.
लघुत्वे प्रकारता इति प्रथमतया स्वीकरोतु. लघुत्वे
अस्तु, लघुत्वे प्रकारता अस्ति. तत् प्रकारता लघुत्वेन अवच्छिन्ना भवति. लघुत्वेन अवच्छिन्ना भवति इति कृते लघुत्वम् इति कृते अवच्छेदकता अस्ति. प्रकारता इति कृते अवच्छेद्यता अस्ति. लघुत्वेन अवच्छिन्ना भवति प्रकारता
इति अस्ति. समीचीनं भगिनि. हा उत्तमम् अस्तु.
तत् प्रकारता निरूपितज्ञानं भवति. प्रकारता
निरूपकं ज्ञानम् अथवा विशेषता
विशेषता निरूपकं ज्ञानं. तत् ज्ञानं तादृशज्ञानम् अस्ति. परिमाणम् इति गुणः अस्ति चेत् एव तदेव कारणं भवति शब्दप्रयोगस्य कृते. शब्दप्रयोगः इति कार्यं भवति. सो घटः लघु परिमाणम् अस्ति. परिमाणं लघुः इति परिमाणम् अस्ति इत्येव इति अस्ति चेत् एव वयं वक्तुं शक्नुमः घटः लघु इति.
समीचीनं भगिनि. तर्हि समीचीनं. तर्हि तत्र यदि तत्र अवच्छेदकधर्मः एतत् सर्वं त्यजामः तत्र एतादृशं तत्र ज्ञानं शब्दप्रयोगः तत्र एषः भागः किं सूचयति?
शब्दप्रयोगेन यत् ज्ञानं
भवति सूचयति. तर्हि तत्र व्यवहारः व्यवहारः एषः भागः व्यवहारं सूचयति. व्यवहारस्य कारणं
परिमाणं
नाम एषः भागः व्यवहारस्य कारणं परिमाणं शब्दप्रयोगं प्रति कारणं शब्दप्रयोगः
ज्ञानस्य
अपि तत्र सर्वविधप्रयोगः न भवति खलु. विशिष्टप्रयोगः एव
विशिष्टप्रयोगः एव
सर्वविधज्ञानं न जनयति एषः शब्दप्रयोगः खलु. तत्र रामः वनं गच्छति इति तत् सर्वम् अत्र नास्ति. केवलम् अयं लघुः अयं ह्रस्वः इति तादृश आकारकज्ञानमेव विषयकज्ञानमेव जनयति शब्दप्रयोगः. अपि किमर्थं शब्दप्रयोगे कारणता अपि कार्यता द्वयमपि अस्ति?
शब्दप्रयोगः एव कारणता भवति ज्ञानस्य प्रति ज्ञानं जनयति. शब्दप्रयोगः परिमाणम् इति अस्ति चेत् एव शब्दप्रयोगः कर्तुं शक्यते. परिमाणम् इति गुणः इति कारणम् इति कारणं भवति शब्दप्रयोगं प्रति.
उत्तमं भगिनि. अतः एव तत्र शब्दप्रयोगे कारणता अपि वर्तते कार्यता
अपि वर्तते.
समीचीनं भगिनि. अस्तु समीचीनं. इदानीं तत्र समीचीनं भगिनि. धन्यवादः. इदानीं योगेन्द्रमहोदय तत्र स्वशब्दैः तत्र किञ्चित् विवृणोति वा तत्र किञ्चित् तत्र चित्रम् अपि तत्र सङ्ख्यायाः विवरणे चित्रं यत् अस्ति अपि अत्र चित्रं यत् अस्ति द्वयोः मध्ये कः भेदः अपि किञ्चित् वदति वा?
संख्यायाः चित्रम् अपि च परिमाणस्य चित्रं तत्र कोऽपि भेदः नास्ति, परन्तु तत्र एक एव भेदः अस्ति, संख्या अस्ति तत्र एकत्वम् अस्ति, अत्र परिमाणस्य लघुत्वम्।
उत्तमं महोदय। अत्र परिमाणं यत्र अस्ति अत्र लघुत्वम् इति अस्ति, यत्र संख्या इति आसीत् तत्र
एकत्वम् अस्ति।
समीचीनं महोदय। अतः तत्र तत्र समानता वर्तते, यतोहि
समानमेव अस्ति।
समानमेव अस्ति। परिमाणं शब्दप्रयोग नाम व्यवहार हेतुः, मानव्यवहार हेतुः परिमाणम्, एकत्वादिव्यवहारहेतुः सङ्ख्या इति अस्ति। तर्हि इदानीं चित्रे किं किम् अस्ति इति किञ्चित् विवृणोतु महोदय।
चित्रमस्ति तत्र घटः अस्ति, घटस्य विशेषणमस्ति लघु, परन्तु तत्र लघु इति विशेषणमस्ति, परन्तु तत्र धर्म अस्ति लघुत्वम् इति विशेषणरूपेण स्वीक्रियते, अतः लघुत्वम् इति।
समीचीनं महोदय। नाम लघुः इति विशेषणवाचकशब्दः नाम
शब्दः अस्ति,
किन्तु साक्षात् पदार्थः कः इत्युक्ते लघुत्वम् इति पदार्थः, धर्मः घटे वर्तते। समीचीनं महोदय।
तदनन्तरं ज्ञानमस्ति, ज्ञानमस्ति घटः अस्ति, अपि लघुत्वमपि अस्ति।
उत्तमं। समीचीनं।
ज्ञाने ज्ञाने कार्यता अस्ति, कार्यता निरूपितकारणता अस्ति, कारणता आश्रय शब्दप्रयोगः अस्ति, शब्दप्रयोगनिष्ठ कार्यता निरूपितकारणता आश्रयत्वं परिमाणम् अस्ति इति लक्षणवाक्यं भवति।
आश्रयत्वं परिमाणस्य लक्षणम्, परिमाणस्य लक्षणं भवति। समीचीनं महोदय। समीचीनं। अस्तु, समीचीनम् अस्तु। तर्हि तत्र कोऽपि प्रश्नः अस्मिन् विषये नास्ति चेत् वा? अस्तु, इदानीम् अग्रे किञ्चित् पठतु महोदय। तर्हि अस्य विभागम् आह,
अस्य विभागम् आह, अणु महत् दीर्घं ह्रस्वं च इति, अत्र एतम् अत्र इदं वक्तव्यम्। पृथिवी निरूपणे गन्धवती का इति प्रश्ने पृथिवी इति समाधानम्, पृथिवी कीदृशी इति पृष्टे गन्धवती इति समाधानम्। अतः गन्धवती इति शब्दः पृथिवी पृथिवीम् एव ब्रूते, तस्मात् पृथ्वी वृत्ति धर्मबोधनाय गन्धत्वं पृथ्वी लक्षणम् इति गन्धवत्वं पृथ्वी लक्षणम् इति वाच्यम् इति उक्तम्। अतः अत्र उदाहरणं दत्तमस्ति परिमाणमस्ति, तस्य परिमाणमस्ति चतुर्विधपरिणामः, परिमाणमस्ति अणु महत् दीर्घं ह्रस्वं च इति। इदानीम् उदाहरणं दृष्ट्वा पठनं भवति। पृथ्वीनिरूपणं यदा कृतवन्तः तदा पृथ्वीनिरूपणे गन्धवती का इति प्रश्ने सति पृथिवी इति समाधानम्।
उदाहरणमिति नास्ति, तस्य उदाहरणमिति नास्ति महोदय साक्षात्, किन्तु विभागमाह अणु महत् दीर्घं ह्रस्वं च इति, तत्र एकविधपरिमाणमेव भवति वा?
एकविधपरिमाणं न भवति, चतुर्विधपरिमाणम्।
परिमाणं चतुर्विधमस्ति, अणुपरिमाणमिति अस्ति, महत्
महत्परिणामस्ति, दीर्घमस्ति, ह्रस्वम्
अपि परिमाणम् इति चतुर्विधं भवति। अत्र इदं वक्तव्यम् इति इदानीं नूतनविषयः, तत्र किं किमर्थम् एतद् वदति इति एतावत् न जानीमः, यावत् भवान् पठितवान् तेन वयं न अवगच्छामः तत्र किमर्थम् एतत् सर्वम् उक्तम् इति। अतः अतः उदाहरणम् इति मा चिन्तयतु इति वक्तुम् इच्छामि. हा अस्तु, अत्र इदं वक्तव्यं. हा किं वक्तव्यं?
यदा वयं पृथ्वी पदार्थः पठितवन्तः तदा पृथ्वी निरूपणे गन्धवती का इति प्रश्ने पृथिवी इति समाधानम् इति उत्तरं भवति पृथिवी गन्धवती अस्ति.
नाम गन्धवती का अस्ति?
गन्धवती अस्ति पृथिवी.
किमर्थं पृथ्वी एव गन्धवती अस्ति?
पृथिव्याः लक्षणम् अस्ति गन्ध.
न किन्तु तस्मात् प्राक् नाम गन्धः कुत्र कुत्र वर्तते?
पृथिव्याम् एव वर्तते.
पृथिव्याम् एव वर्तते. हा समीचीनम्. अपि पृथिव्यां सर्वत्र वर्तते खलु?
आम्.
अतः पृथिव्यां सर्वत्र वर्तते, पृथिव्यां पृथिवीं विहाय अन्यत्र न वर्तते इति कृत्वा तत्र गन्धवती का भवति इत्युक्ते पृथ्वी एव इति समाधानं दत्तं. समीचीनम्. अग्रे
पृथिवी कीदृशी इति पृष्टे गन्धवती इति समाधानं भवति.
नाम गन्धवती का इत्युक्ते पृथ्वी इति.
गन्धवती का इत्युक्ते पृथिवी, पृथिवी कीदृशी इत्युक्ते गन्धवती इति समाधानम्.
इदानीं तत्र कीदृशी इत्युक्ते विशेषणं. तत्र कीदृशी, एषः बालकः कीदृशः? ओ, एषः बालकः तु उत्तमः इति वदामः खलु. ततः पृथ्वी कीदृशी इत्युक्ते इति पृष्टे सति वयं किं वदामः, किं समाधानं दत्तं? पृथ्वी
गन्धवती इति समाधानं.
पृथ्वी गन्धवती अस्ति इति समाधानं दत्तम्. अतः
अतः गन्धवती इति शब्दः पृथ्वीम् एव ब्रूते. अतः यदा गन्धवती इति यदा वदामः तदा तस्य अर्थः पृथिवी एव भवति इति आशयः.
इति आशयः. समीचीनं महोदय. पृथ्वी एव इति आशयः. अग्रे
तस्मात् पृथ्वीवृत्तिधर्मबोधनाय पृथ्वीवृत्तिधर्मबोधनाय गन्धत्वं पृथ्वी पृथिवी गन्धवत्वम् इति पृथिव्या पृथिवी लक्षणम् इति वाच्यम् इति उक्तम्. अतः यदा गन्धवती का इति प्रश्नसति पृथ्वी, पृथिवी कीदृशी इति प्रश्नसति गन्धवती. अतः यदा परस्परं सम्बन्धः अस्ति, गन्धवती इति शब्द यदा उपयोगं भवति तदा पृथिवीम् एव ब्रूते इति अर्थः भवति. अतः तस्मात् पृथ्वी अस्ति, यदा पृथ्वी वर्ती अस्ति तस्य धर्मबोधनाय गन्धत्वम् इति पृथिव्याः लक्षणम् इति गन्धवत्वम् इति पृथिव्याः लक्षणम् पृथिव्याः.
न गन्धत्वं कुत्र वर्तते?
गन्धवत्वं पृथिव्यां वर्तते.
किन्तु गन्धत्वं कुत्र वर्तते?
गन्धत्वं
सर्वे जानन्ति, भवानपि जानाति एव. गन्धत्वं नाम पुस्तक. वदतु भगिनि.
गन्धत्वं गन्धे वर्तते.
गन्धे वर्तते खलु.
आम्.
अतः गन्धवत्वं भिन्नं, गन्धत्वं भिन्नं खलु महोदय.
आम्.
अत्र किं, गन्धत्वम् अथवा गन्धवत्वं किं वर्तते?
गन्धवत्वम् अस्ति.
अतः गन्धवत्वम् इति एव तत्र समीचीनं. गन्धत्वं समीचीनं नास्ति. तर्हि पृथ्वीलक्षणं किम् अस्ति नाम पृथिव्याम् एषः धर्मः भवेत्, पृथ्वीं विहाय अन्यत्र न भवेत्, पृथिव्यां सर्वत्र भवेत्, तदेव लक्षणं खलु. नाम अतिव्याप्ति अव्याप्ति दोषराहित्यं खलु. तर्हि तत्र गन्धवत्वं नाम गन्धवती पृथिवी इति अस्ति चेत् तर्हि पृथिव्यां किम् अस्ति?
गन्धवत्वं.
गन्धवत्वं वर्तते. गन्धवत् यथा तत्र उत्तमः बालकः इति वदामश्चेत् तत्र उत्तमत्वं बालके वर्तते, तथैव गन्धवत् तत्र तत्र धन गन्धवत् इति विशेषणं गन्धवती पृथिवी, तर्हि विशेषणसूचकपदमस्ति गन्धवती, यथा उत्तमः बालकः, तर्हि साक्षात् विशेषणं किमस्ति उत्तमत्वं बालके वर्तते, तथैव गन्धवती पृथ्वी इति यदि वदामः तस्य गन्धवती इति तस्य भाववाचकशब्दः अस्ति गन्धवत्वं, खलु? हा, तदेव पृथिव्यां वर्तते. अतः गन्धवत्वं कीदृशधर्मः अस्ति अत्र वाक्ये, किं दत्तं गन्धवत्वं कीदृशधर्मः? पृथ्वी
पृथ्वीवृत्तिधर्म.
हा, पृथ्वीवृत्तिधर्म
यत्र वर्तते तस्य धर्मबोधनाय गन्धवत्वमस्ति.
नाम पृथ्वीवृत्तिधर्म इत्युक्ते किमस्ति? वृत्ति
पृथ्वी वृत्ति वर्तते.
हा,
वर्तते.
कुत्र वर्तते?
पृथ्वी वर्तते इति, यत्र पृथ्वी वर्तते.
पृथ्वी वृत्तिः इत्युक्ते किमस्ति? पृथ्वी वर्तते इति नास्ति. पृथ्वी वृत्तिः, पृथ्वी वृत्तिधर्मः इत्युक्ते अर्थः कः?
पृथिव्याः वृत्तेः धर्मः.
न न, पृथिव्याः इति पृथिवीवृत्तिधर्मः इत्युक्ते पृथिव्यां यः धर्मः वर्तते. महोदय,
पृथिव्यां यः धर्मः वर्तते.
हा, नाम धर्मः, धर्मः कुत्र वर्तते? पृथिवीवृत्तिधर्मः नाम एषः धर्मः कुत्र वर्तते इति सूचितं. कुत्र वर्तते धर्मस्य वृत्तिः? वृत्तित्वं कुत्र भवति? पृथिव्यां भवति, नाम पृथिव्यां वर्तते एषः धर्मः. अतः पृथ्वीवृत्तिधर्मः, वृत्तिधर्मः कः? अत्र
पृथिव्यां यः धर्मः वर्तते गन्धत्वं.
न न महोदय, पुनः गन्धत्वम् इति एव भवान् वदति. गन्धत्वं भिन्नमस्ति, गन्धवत्वं भिन्नमस्ति खलु? तर्हि पृथिव्यां कः धर्मः वर्तते?
पृथिव्यां गन्धवत्वं वर्तते.
गन्धत्वं कुत्र वर्तते?
गन्धे वर्तते.
हा, तर्हि गन्धत्वं कीदृशः धर्मः इत्युक्ते गन्धवृत्तिधर्मः गन्धत्वं.
गन्धवृत्तिधर्म गन्धत्वं, पृथ्वीवृत्तिधर्मः गन्धवत्वं.
गन्धवत्वम् इति भवति. समीचीनं महोदय, खलु? अतः गन्धवत्वं पृथिवीलक्षणम् इति तादृशं वक्तव्यं वाच्यम् इति पूर्वम् उक्तमस्ति इति वदति. किन्तु किमर्थं वदति इति एतावत् न जानीमः, अग्रे पठामः तर्हि तत्र स्पष्टता भवेत्. अस्तु, समीचीनं महोदय, धन्यवादः. अग्रेसरामः, प्रश्नः
अस्ति,
वदतु भगिनि.
विभागमाह इति अणु महत् दीर्घं ह्रस्वम् इति अस्ति खलु, तत्र महत् परि अस्ति परन्तु परममहत् नास्ति वा?
आमामां भगिनि, अतः तत्र अतः एव तत्र किमर्थं तत्र एतादृशं दत्तम्, अत्र किञ्चित् हा वक्तव्यम् अस्ति. अतः एव एतावत् तत्र विषयस्य उद्घाटनं कृतं, किन्तु समाधानं न दत्तं, केवलं विषयस्य उद्घाटनं. नाम विभागस्य विषये किञ्चित् वक्तुम् इच्छति किन्तु एतावत् समाप्तं नास्ति, अग्रे पठितव्यम्. अस्तु, इदानीम् अग्रे तत्र शोभाभगिनी अग्रे पठति वा?
आम् महोदय, पठामि. तद्वदेव महत् आकाशं दीर्घं क्षेत्रमिति व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य किन्तु तादृशपरिमाणवतां भवेत्. अतः इहापि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः. तथा च अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वम् इति चतुर्विधं परिमाणं मूलोक्तं बोध्यम्. हा, तद्वद् एव महत् आकाशं दीर्घं क्षेत्रम् इति अस्तु. तत्र तद्वत् एव इत्युक्ते यथा पूर्वस्मिन् परिच्छेदे यथोक्तं तत्र तस्मात् पृथ्वी वृत्तिधर्मबोधनाय गन्धवत्वं पृथ्वीलक्षणम् इति वाच्यम् इति उक्तम् इति. तथा एव महत् आकाशं दीर्घं क्षेत्रम् इति व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य तत्र पूर्वस्मिन् परिच्छेदे आरम्भे पठितवन्तः अस्य विभागम् आह अणुमहद्दीर्घं ह्रस्वं च इति तत्र परिमाणम् उद्दिश्य उक्तमासीत्. किन्तु एते सर्वे प्रयोगाः परिमाणाय अथवा परिणामं प्रति न उद्दिष्टाः सन्ति, किन्तु तादृशपरिमाणवतां भवेत्. वताम् इति तत्र मतुप्रत्ययः अस्य अस्मिन् वा इति.
परिमाणवतां मतु अपि विभक्ति का तत्र?
तत्र षष्टिविभक्तिः परिमाणवताम् इति बहुवचने. तादृशपरिमाणवत् इति प्रातिपदिकं भवति तत्र.
तस्य षष्टि बहुवचनं परिमाण
षष्टि बहुवचनं भवति इत्युक्ते येषु अस्मिन् येषु एते किं तत्र अणु महत् दीर्घं ह्रस्वम् इति येषु वर्तन्ते इति भवति इति मन्ये तत्र महोदय. किन्तु तादृशपरिमाणवतां भवेत् किं भवेत् इत्युक्ते तत्र महत् इत्यादयः. अतः इहा अपि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः. तत्र भाववाचकप्रत्ययः मतु प्रत्ययः भवति.
तत्र उदाहरणार्थं तत्र किञ्चित् तत्र प्रायशः सर्वं स्पष्टं नास्ति इति मन्ये. नाम तत्र यदि वयं वदामः तत्र घटः लघुः, लघुः घटः अथवा तत्र दीर्घः घटः इति वदामः, तर्हि दीर्घः इति किं भवति? तत्र दीर्घः इति किं सूचयति?
यस्मिन् दैर्घ्यम् अस्ति इति सूचयति.
हा, परिमाणं न सूचयति किन्तु साक्षात् परिमाणवतां. हा, नाम यस्मिन् तादृशपरिमाणम् अस्ति इति सूचयति. नाम घटस्य विशेषणं भवति यदि वयं वदामः तत्र घटः दीर्घः इति
इत्युक्ते तत्र दीर्घवान् घटः इति भवेत्.
हा, घटः दीर्घवान् इति तादृशं समीचीनं. नाम दीर्घः घटः इति अथवा तत्र साक्षात् दीर्घवान् घटः अपि. हा, तां नाम परिमाणवान् घटं घटः परिमाणवान् घटः
घटं
घटः घट परिमाणवान् घटः
वान् घटः. आम् आम्,
घटः तं घटं सूचयति.
तं घटं सूचयति.
हा, परि तत्र साक्षात् द्वितीयविभक्तिरूपं किं भवति? परिमाणवन्तं खलु
घटं
घटं सूचयति.
परिमाणवन्तं घटं सूचयति
सूचयति.
आम् आम्, न तु परिमाण इति पदस्य कृते न. यस्मिन्
परिमाणं न सूचयति.
परिमाणं न सूचयति यस्मिन्
परिमाण
यस्मिन् एते परिमाण किं वदामः तत्र गुणः न किन्तु
गुणः एव परिमाणं गुणः एव अस्ति.
अस्तु अस्तु एते गुणाः सन्ति तान् सूचयति
तं सूचयति. अतः किम् उक्तम् इत्युक्ते यदि वयं वदामः दीर्घः अणु महत् ह्रस्वमिति यदि वदामः तर्हि येषु पदार्थेषु अत्र उक्तं तत्र कुत्र कुत्र सङ्ख्या वर्तते तत्र नवद्रव्यवृत्ति
आम्
अतः सर्वेषु द्रव्येषु वर्तते क्षम्यतां परिमाणं सर्वेषु द्रव्येषु वर्तते परिमाणम् अतः सर्वेषां द्रव्याणां विभागः कृतः न तु साक्षात् परिमाणस्य विभागः कृतः.
सर्वेषां द्रव्याणां अणु महत् दीर्घं ह्रस्वम् इत्युक्ते चतुर्विधेषु विभागं
कृतम् अस्ति परिमाणस्य साक्षात् विभागः न कृतः इति वदति एतावत्. किमर्थं तत्र यतोहि परिमाणवन्तं सूचयति न तु परिमाणवन्तं सूचयति न तु परिमाणं सूचयति अतः तत्र किं कर्तव्यम् इहापि
इहापि कुत्र महोदय इहापि
अत्र अतः इहापि परिमाण
अतः इहापि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः. अतः
गन्धवती यथा गन्धवती पृथ्वी इति उक्तवन्तः तत्र गन्धवती विशेषणं साक्षात् विशेषणवाचकपदं पृथिव्याः. तथैव यदि वयं वदामः दीर्घः घटः दीर्घः भवति विशेषणसूचकपदं घटस्य
दीर्घत्वम् अस्ति इत्यतः अतः तत्र तथा च अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति चतुर्विधं परिमाणं मूलोक्तं बोध्यम्. यथा वयं पूर्वं दृष्टवन्तः महोदय उन्नतः इति वृक्षे नास्ति उन्नतत्वम् इति अस्ति इति
सत्यम्.
अपि च अणुत्वं महत्त्वम् इति तत्र महत्त्वम् इत्युक्ते आकाशे इति वदामः किम्
तत् अग्रे पश्यामः किन्तु इदानीं तत्र इदानीं तावत् केवलं तत्र अणुत्वम् इति एव साक्षात् गुणं तत्र वर्तते. यदि यदि वयम् अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति वदामः तदा परिमाणस्य विभागं कुर्मः. केवलं तत्र अणुमहद्दीर्घं ह्रस्वम् इति वदामश्चेत् द्रव्याणां विभागं कुर्मः.
इत्युक्ते अणु महद्दीर्घं ह्रस्वम् इति वदामः चेत् द्रव्याणां विभागः तत्र इत्युक्ते द्रव्याणां विभागः परिमाणम् अनुसृत्य किन्तु अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति वदामः चेत् तत्र भाववाचकप्रत्ययान् उपयुज्य तत्र तादृशपरिमाणवतां बोधनं भवति.
न इदानीं नाम यदि अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति यदि वदामः भाववाचकप्रत्यय तदा साक्षात् परिमाणस्य विभागः भवति. नाम तत्र चित्रं चित्ररूपेण प्रदर्शयामश्चेत् तत्र यदि एतद् लिखामः चित्ररूपेण परिमाणम् इति लिखित्वा परिमाणस्य चतुर्विधम् इति वदामश्चेत् अत्र यदि अणु अपि महत् दीर्घम् अपि अन्यत् किम् आसीत् तत्र अन्त ह्रस्वम् इति यदि ह्रस्वम् इति यदि वदामः एतत् समीचीनं वा न समीचीनं किम्
परिमाणम् इति तत्र विभागं द्रव्य द्रव्याणां कृते इति उक्तं
नाम
भवता तत्र इदानीं परिमाणं
पुस्तके किम् उक्तम् इत्युक्ते यद्यपि साक्षात् तत्र तर्कसङ्ग्रहे मूलवाक्ये अणु महद् दीर्घं ह्रस्वं च इति तत्र तत् चतुर्विधम् अणु महद् दीर्घं ह्रस्वं च इति यद्यपि एतत् लिखितं मूलग्रन्थे तर्कसङ्ग्रहे अण्णम्भट्टैः किन्तु तत्र अवगमनं न तत्र सम्यक् अवगमनाय तत्र किञ्चित् यदि वयं चिन्तयामः तत्र वयं किम् अवगच्छामश्चेत् तत्र परिमाणस्य विभागः अणुमहदीर्घं ह्रस्वम् इति न भवति किन्तु यदि अहं स्वीकरोमि तत्र अनेके घटाः सन्ति इति चिन्तयतु तत्र घटेषु ओ एषः घटः दीर्घः एषः घटः ह्रस्वः एषः घटः अणुः इति घटानां विभागः कर्तुं शक्नुमः तथैव सर्वेषां द्रव्याणां विभागं कर्तुं शक्नुमः अणुपरिमाणम् अणुपरिमाणवत् अथवा तत्र परिमाणवत् तत्र तत्र सर्वेषां द्रव्याणां विभागं कर्तुं शक्नुमः अणु महत् दीर्घं ह्रस्वं स्वीकृत्य किन्तु तर्हि तत्र अणु महत् दीर्घं ह्रस्वं किं सूचयति तत्र तद्विभागं परिमाणस्य विभागं नास्ति किन्तु परिमाणं येषु वर्तते तेषां पदार्थानां विभागः नाम द्रव्याणां विभागः साक्षात् अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति एव तत्र अत्र यदि भाववाचकं योजयामः तदा सर्वं समीचीनं भवति तत्र त्वं त्वम् इति यदि अहं योजयामि तदा एतत् परिमाणस्य विभागं विभागः भवति अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति नाम अणुत्वं परिमाणस्य एकविधं महत्त्वं परिमाणस्य अन्यत् विधं दीर्घत्वं परिमाणस्य अन्यत् विधं किमर्थं यतोहि परिमाणं कुत्र अस्ति घटे वर्तते इत्युक्ते घटे वर्तते परिमाणं वर्तते चेत् परिमाणमिति गुणः घटे वर्तते यदि वयं वदामः दीर्घः घटः किं दीर्घः इति घटे वर्तते वा
दीर्घः इति न वर्तते दीर्घत्वं वर्तते
हा अतः दीर्घत्वमेव परिमाणं सूचयति दीर्घः इति घटं सूचयति खलु
आं महोदय तत्र मम प्रश्नः अस्ति तद्वत् एव महत् आकाशं दीर्घं क्षेत्रम् इति व्यवहारात् तत्र अणु महद् महदादिविभागः मूलोक्तः मूले उक्तः न परिमाणस्य इति तत्र तदेव परिमाणस्य नास्ति किन्तु तादृशपरिमाणवतां भवेत् इति
नाम सत्यं नाम अणु महद् इत्यादिविभागः परिमाणवतां नाम परिमाणस्य आश्रयम्
यत्र अस्ति येषु अस्ति
आश्रयस्य विभागः नाम आश्रयः कीदृशः इति दृष्ट्वा तेषां विभागः भवति नाम अणु इति साक्षात् आश्रयं सूचयति न तु परिमाणं सूचयति इति तावदेव उक्तम् आम् यथा गन्धवती इति किं सूचयति पृथिवीं सूचयति गन्धवती इत्युक्ते पृथ्वी पृथ्वी कीदृशी गन्धवती खलु दीर्घः घटः दीर्घः कः
दीर्घः
नाम नाम गन्धवती पृथ्वी गन्धवती का पृथ्वी
दीर्घः घटः एव
हा दीर्घः घटः अस्ति दीर्घः इत्युक्ते कः दीर्घः कः घटः घटः कीदृशः दीर्घः किन्तु घटे साक्षात् किम् अस्ति दीर्घत्वम् अस्ति तत्र भाववाचक भावप्रत्ययस्य योजनं भवति तथैव अतः एव तद्वत् एव तत्र अणुमहत् इत्यादि आश्रयं सूचयति न तु आश्रये विद्यमानं गुणं सूचयति
आं महोदय
स्पष्टता अस्ति वा भगिनि
आम् 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 अवगतम्
अस्तु अस्तु इदानीम् अन्य कोऽपि वदेत् तर्हि तत्र हा नरसिंह हेग्डे महोदय किञ्चित् वदति वा महोदय तत्र एतत् अस्मिन् परिच्छेदे किम् उक्तम् इति
कुत्र महोदय
अस्मिन् परिच्छेदे
तद्वदेव तद्वदेव महत् आकाशं दीर्घं क्षेत्रमिति व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य किन्तु तादृशपरिमाणवतां भवेत् अतः इह अपि परिमाणबोधनाय एकक्षणं
तत्र
इह अपि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः तथा च अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति चतुर्विधं परिमाणं मूलोक्तं बोध्यम् अत्र यथा गन्धवती पृथिवी इति उक्ते तत्र गन्धवत्वं पृथिव्या लक्षणम् इति वयम् उक्तवत्वा तादृशमेव अत्र केवलम् अणुमहत् बृहत् अणुमहत् दीर्घ ह्रस्व इति वदामः चेत् तत् परिमाणं न सूचयति तत् परिमाणं सूचयितुं भाववाचकप्रत्ययं योजनीयं तत् आवश्यकमिति अत्र दत्तमस्ति महोदय
तत्र तर्हि तत्र दीर्घः घटः इति वदामश्चेत् तत्र दीर्घः कः भवति
अत्र दीर्घत्वं घटे वर्तते इति भवति अर्थात्
हा तर्हि यदि वयं तत्र अणुमहद् ह्रस्व दीर्घ इति वदामः तत्र परिमाणस्य विभागः भवति वा तद्
तत् परिमाणस्य विभागः न भवति द्रव्यस्य विभागः भवति परिमाणस्य विभागं सूचनाय प्रत्ययं योजनं भवति योजनीयं
हा परिमाणस्य विभागं सूचयितुं तत्र भाववाचकं प्रत्ययस्य योजनेन तत्र परिमाणस्य विभागं कर्तुं शक्नुमः नाम परिमाणस्य विभागः साक्षात् विभागाः के इत्युक्ते अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति साक्षात् विभागः विभाग भवति विधाः भवति
पृथ्वीलक्षणं तत्र तत्रापि एतदेव दत्तं तत्र अत्र अन्यत् रीत्या दत्तमस्ति पूर्वं पूर्वमेव गन्धवती पृथ्वी इत्यत्र एव तादृशं दत्तमस्ति परन्तु अन्यत् रीत्या अत्र पुनः दत्तमस्ति
हा नाम यथा वयं वदामः तत्र समीचीनं महोदय धन्यवादः हा तत्र अन्यत्रापि अपि वदेत् हा तत्र यतोहि अस्मिन् विषये स्पष्टता भवेत् तर्हि तत्र पद्मा भगिनी किञ्चित् वदति वा स्वशब्दैः तत्र किम् उक्तम् अस्मिन् परिच्छेदे इति
तत्र अणु महत् दीर्घं ह्रस्वम् इत्यादि पदानि परिमाणवाचकशब्दाः न द्रव्यवाचकशब्दाः एव
समीचीनं हा
अतः तद् महत्त्वं दीर्घः दण्डः इत्युक्ते दीर्घः इति पदं तत् द्रव्यमेव सूचयति दीर्घत्वम् इति यदा वदामः दीर्घत्वं दण्डे अस्ति अतः दीर्घत्वम् एव परिमाणवाचकशब्दः
उत्तमं हा समीचीनं समीचीनं दीर्घत्वमेव परिमाणस्य विभागः एकविधं भवति परिमाणस्य चतुर्विधम् इत्युक्ते तत्र दीर्घत्वम् इति एकविधं भवति समीचीनं भगिनि हा नाम
दीर्घत्वम् अस्ति तद् दीर्घः तद्वस्तु तद्द्रव्यं
समीचीनं हा समीचीनं भगिनि हा तर्हि आश्रयं बोधयति दीर्घं ह्रस्वम् अणु महत् इत्यादि पदाः पदानि किन्तु अणुत्वम् इति यदि वदामः तत्र आश्रयं न किन्तु तस्मिन् विद्यमानः गुणः तं गुणं भवति इति नाम अणुमहत् इत्यादि तत्र गुणिं तत्र गुणीयः अस्ति तत्र गुणीनं बोधयति
गुणिनं बोधयति तत् पूर्ववत् एव किल अस्ति तत्र एकः इत्युक्ते एकः इति तत्र संख्यावाचकपदं संख्या तु एकम् एकत्वं यत्र विद्यते तदेव एकः
तथैव अस्ति सत्यं भगिनि हा समीचीनं हा समीचीनं भगिनि हा उत्तमं हा नाम एकः घटः किन्तु घटे एकत्वं तथैव दीर्घः दण्डः तत्र दीर्घत्वं दण्डे इति समीचीनं हा तथैव अस्ति अस्तु समीचीनं भगिनि अस्तु अग्रे किञ्चित् पठति वा परिमाणस्य विभागान्तरम् इति
परिमाणस्य विभागान्तरं कार्यकारणभाववर्णनाय अन्यः अपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः स च अणुपरिमाणं मध्यपरिमाणं परममहत्परिमाणम् इति तत्र परमाणुपरिमाणं परमाणुद्वणुकयोः मध्यपरिमाणं जन्ये द्रव्ये घटादौ परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेयम् तत्रापि आद्य अन्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम् कार्यकारणभाववर्णनाय अन्यः अपि परिमाणस्य विभागः न्यायशास्त्रे कारणकारण सम्बन्धं वक्तुं तत्र अन्यविभागः अस्ति स च तदेव अणुपरिमाणं मध्यपरिमाणं परममहत्परिमाणम् इति न्यायशास्त्रे अस्ति तत्र
नाम तत्र तर्कसङ्ग्रहे मूलग्रन्थे परिमाणस्य विभागं तत्र अणु महत् दीर्घं ह्रस्वम् अथवा अणुत्वं दीर्घत्वं ह्रस्वत्वं महत्त्वम् इति कृतं किन्तु न्यायशास्त्रे अन्यविभागः अपि वर्तते परिमाणस्य किमर्थम् अन्यविधपरिमाविभागः वर्तते कार्यकारणवर्णनाय हा नाम कुत्र कयोः मध्ये कार्यकारणभावः वर्तते इति वक्तुं सुलभः भवेत् तत्र सौकर्यं भवेत् इति कृत्वा अन्यविधविभागः अपि कृतः अस्ति न्यायशास्त्रे परिमाणस्य
परमाणुपरिमाणं परमाणुद्वयणुकयोः
अवतारणम् इति किल नाम तत्र वर्तते परमाणु यः अस्ति तस्य परिमाणं अणुपरिमाणं
परमाणुद्वयणुकयोः कारणं परमाणुपरिमाणं
न इदानीं कारणस्य विषयः नास्ति न उक्तः उक्तं किन्तु तत्र विभागः इति उक्तं खलु तर्हि किञ्चित् वक्तव्यमस्ति अणुपरिमाणं कुत्र वर्तते मध्यमपरिमाणं कुत्र वर्तते परममहत्परिमाणं कुत्र वर्तते इति वक्तव्यं खलु यतोहि विभागः अस्ति इति उक्तं तर्हि अणुपरिमाणं कुत्र
वर्तते मध्यपरिमाणम् इत्युक्ते घटपट इत्यादयः
जन्येति महत्त्वं जन्ये इत्युक्ते
उत्पत्त्यनन्तरं
न यस्य तत्र पदार्थस्य तत्र द्रव्यस्य उत्पत्तिः भवेत् नाम अनित्यपदार्थः अनित्यं द्रव्यम् केवलम् अनित्यद्रव्ये एव
अनित्यद्रव्ये
तत्र एव वर्तते परमाणु तत्र पार्थिवपरमाणु अस्ति चेत् तस्य परिमाणमस्ति अणुपरिमाणम् द्वयणुकस्य अपि अणुपरिमाणम् किन्तु
परमाणुपरिमाणं द्वयणुकमपि परमाणुपरिमाणमेव
एव किन्तु त्रयाणकं स्वीकुर्मश्चेत् तत्
न्यायशास्त्रे
मध्यमपरिमाणम् इति तेषां चिन्तनं समीचीनं भगिनि. हा हा अस्तु अग्रे तदनन्तरं परममहत्त्वम्
इत्युक्ते आकाशादिद्रव्येषु वर्तते
विभुद्रव्येषु परममहत्परिमाणम् आकाशादिद्रव्येषु वर्तते इति ज्ञेयम्.
तत्र आदि अन्तिमयोः इत्युक्ते परमाणुद्वयणुकयोः अनन्तरं परममहत् परिमाणविषये क्वापि परिमाणं प्रति न कारणत्वं तत्र कारणं किमपि नास्ति इत्येव
समीचीनं भगिनि. तथा समीचीनं नाम तत्र परमाणु इति स्वीकुर्मः समीचीनं भगिनि. तत्र परमाणु इति स्वीकुर्मः तत्र पार्थिवपरमाणु इति चिन्तयतु. इदानीं परिमाण तत्र परिमाणं प्रति किमपि कारणं वर्तते वा?
नित्यद्रव्या
तत्र नित्यद्रव्यम् अस्ति चेत् तस्य किमपि कारणं भवति वा?
न
कारणमेव नास्ति. अतः परमाणोः कारणं न वक्तुं शक्नुमः यतोहि नित्यद्रव्यम् अस्ति. तर्हि तत्र परमाणोः कारणं न वक्तुं शक्नुमश्चेत् तर्हि तस्मिन् विद्यमानः तत्र गुणस्य अपि किमपि कारणं न भवति. यतोहि परमाणु अस्ति चेत् तत्र गुणः अपि तत्र नित्यं भवेत् खलु. अतः तस्य अपि किमपि कारणं नास्ति. अतः परिमाणं प्रति तत्र परमाणुमध्ये परमाणौ विद्यमानं परिमाणं प्रति किमपि कारणं नास्ति. तथैव आकाशे विद्यमान परिमाणं प्रति किमपि कारणं नास्ति न वर्तते. अतः आदि
अतः ते अनित्यद्रव्याः
इति समीचीनं भगिनि. अतः एव तत्र एतादृशकार्यकारणविवर्णनाय तत्र विभागं तत्र त्रिविधविभागं कृतम् अस्ति. यतोहि परमाणुपरिमाणम् अपि परममहत्परिमाणम् इति अस्ति तयोः कारणं नास्ति. यतोहि ते गुणाः तत्र परिमाणरूपगुणः नित्यद्रव्ये एव भवति इति. अस्तु समीचीनं भगिनी उत्तममस्ति. अग्रे तत्र राजीव भगिनी अग्रे किञ्चित् पठति वा?
अद्य केवलम् अहं शृणोमि महोदय.
इति वा? अस्तु भगिनि अस्तु भगिनि समीचीनं. चिन्ता मास्तु. तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा?
द्वितीयसमवायीकारणवर्णनं मध्यमपरिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायीकारणं. तथा हि खडस्य यावत् परिमाणं कुलालः इच्छति तज्जननयोग्यपरिमाणकौ कपालौ एव तेन स्वीकार्यौ. तुल्यपरिमाणकयोः कपालकयोः तद्विगुणितपरिमाणवत् घटस्य जनन दर्शनात् इदमेव इदमेव च अवयवपरिमाण अपेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते एवं च तथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति तथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन दित्तुं जनयति तथैव कपालपरिमाणमपि कपाले समवायेन स्थित्वा खडपरिमाणं जनयति इति कपालपरिमाणम् इति असमवायीकारणं परन्तु अत्र अस्ति कश्चित् विशेषः
इति पुनः तत्र विषयस्य उद्घाटनम् अस्तु तत्र एतावत् पठतु भगिनि नाम
मध्यमपरिमाणं तु भवति स्वाश्रयजन्य द्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायीकारणं मध्यमपरिमाणम् इत्युक्ते जन्यवस्तूनाम् अस्ति मध्यमपरिमाणं तु
तत्र उदाहरणार्थं तत्र यदि
घटः पटः
स्वीकुर्मः समीचीनं घटः स्वीकुर्मः अपि तत्र कपालः इति स्वीकुर्मः इदानीं प्रश्नः तत्र कपालस्य परिमाणम् अपि घटस्य परिमाणं तयोः मध्ये कोऽपि सम्बन्धः अस्ति वा नाम कपालस्य परिमाणं यदि लघु अस्ति तु घटस्य परिमाणं बृहत् भवितुम् अर्हति वा
कपालद्वयस्य योजनेन कपाल घटः
घटस्य निर्माणं भवति इदानीं किं तत्र यदि कपालद्वयोः परिमाणं लघु अस्ति
समानमस्ति घटस्य परिमाणं समानं
घटस्य बृहन् समानं भवति खलु परिमाणं समानं भवति खलु तदेव तत्र तदेव वक्तुम् इच्छति अत्र अतः मध्यमपरिमाणे किं भवति तत्र कारणं भवति नाम कपालस्य परिमाणं घटे विद्यमानं परिमाणं प्रति कारणं भवति खलु
अस्तु
यतोहि कपालस्य परिमाणं दृष्ट्वा घटस्य परिमाणं किं भवति इति वक्तुं शक्नुमः खलु
अस्तु
अतः वदतु पठतु भगिनि इदानीं मध्यमपरिमाणं
परिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायीकारणम् इति
असमवायीकरणं तर्हि इदानीं तत्र बहु किमपि इदानीम् उक्तम् उत्कृष्टपरिमाणं नाम किम् असमवायीकारणम् उत्कृष्टपरिमाणं नाम किम् असमवायीकारणं किम् अपि स्व आश्रयजन्यद्रव्यं किम् इति तर्हि एतत् सर्वम् अग्रिमे वर्गे परिशीलयिष्यामः स्व आश्रयजन्यद्रव्यं नाम किम् उत्कृष्टपरिमाणं नाम किम् अपि कथम् असमवायीकारणं भवति मध्यमपरिमाणम् इति यतोहि तत्र समयः अपि जातः तर्हि अत्र विरमाम किन्तु बहु किमपि अद्य अतीतवन्तः नाम तत्र वयं तत्र परिमाणस्य लक्षणवाक्यं पठितवन्तः अवगतवन्तः इदानीं परिमाणस्य विभागः मूलोक्ते ग्रन्थे एकविधं दत्तमस्ति किन्तु अन्यविभागः शास्त्रे स्वीकृतः न्यायशास्त्रे स्वीकृतः तत्र अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणमिति तत्र अणुपरिमाणस्य अपि महत्परिमाणस्य किमपि कारणं नास्ति किन्तु मध्यमपरिमाणस्य कारणम् अस्ति तत् कारणं किम् इति तत्र वयं द्रक्ष्यामः अस्तु तर्हि अत्र विरमाम अग्रिमे वर्गे मिलामः धन्यवादः नमस्कारः